एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सर्वकारस्य आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमः अद्य दिवात्रिवादने संघीय संसदः संयुक्तोपवेशे प्रस्तुयन्ते। राष्ट्रपतिः रामचन्द्र पौडेलः सर्वकारस्य नीति कार्यक्रमान् प्रस्तुवन् संघीय संसदः सदनद्वयस्य संयुक्तोपवेशम् सम्बोधयति। संसदः संयुक्तोपवेशस्य कृते सर्वाणि आवश्यक पूर्व कार्याणि प्रपूरितानि सन्तीति संघीय संसद सचिवालयस्य सहायक प्रवक्ता दशरथ धमला असूचयत। राष्ट्रपतिना सम्बोधनस्य पश्चात् अद्य सायम् उपविश्यमाने राष्ट्रियसभायाः प्रतिनिधि सभायाश्च पृथक् पृथक् उपवेशे प्रधानमन्त्रिणा पुष्पकमलदाहाल प्रचण्डेन सर्वकारस्य नीति कार्यक्रमाणाम् उपवेशेन धन्यवाद ज्ञापनस्य प्रस्तावस्य च प्रस्तुतेः कार्यसूची निर्धारिता स्थिति संघीय संसद सचिवालयेन ज्ञापितम् वर्तते। संघीय संसदि प्रस्तुयमानानाम् सर्वकारस्य नीति कार्यक्रमाणाम् रेडियो नेपालेन प्रत्यक्षम् प्रसारणम् विधीयमानम् वर्तते। प्रधानमन्त्रिणा पुष्पकमलदाहाल प्रचण्डस्य सभामुखस्य देवराज घिमिरेभिदस्य च मध्ये सर्वकारस्य नीति कार्यक्रमाणाम् प्रस्तुतेर्विषये राजनीतिक सहमतये विधीयमानस्य प्रयासस्य विषये च विमर्शनम् सम्भूतम् वर्तते। प्रधानमन्त्रिणा प्रचण्डस्य सभामुखस्य घिमिरेभिदस्य च मध्ये ह्य दूरभाषस्य माध्यमेन राजनीतिक सहमतये प्रधानमन्त्रिणा विधीयमानस्य प्रयासस्य संसदः पूर्व कार्याणाम् च विषयेष् विमृष्टमस्तीति सभामुखस्य सचिवालयेन ज्ञापितम् वर्तते। प्रधानमन्त्री पुष्पकमलदाहाल प्रचण्डः पश्चात्तन राजनीतिक गतिरोधम् निवार्य सदनम् नियमितरूपेण सञ्चलतीति विश्वासम् व्यनक्ति। चितवन जनपदस्य पूर्वभागे ह्य अग्रणी कार्यकर्तृभिः सह वित्तीय मेलन कार्यक्रमे प्रशिक्षण कार्यक्रमे च प्रधानमन्त्री प्रचण्डः राजनीतिक दलैः सह औपचारिक रूपेण अनौपचारिक रूपेण च विमर्शनम् जायमानम् अस्ति इत्यतः शीघ्रमेव निष्कर्षम् प्राप्स्यते इति विश्वासम् व्यक्तवान्। प्रधानमन्त्री पुष्पकमलदाहाल प्रचण्ड कथयति स्थानीय सर्वकारैः नागरिक मैत्रिणी कार्याणि सम्पादितानि सन्त्येव संघीयतायाः औचित्यस्य पुष्टिर्भवति। चितवन जनपदस्य खैरानी नगरपालिकायाः वार्षिकोत्सवस्य अवसरे ह्य आयोजितम् कार्यक्रमम् सम्बोधयन् प्रधानमन्त्री प्रचण्डः जनतायाम् प्रवाह्यमानाम् सेवाम् उत्तरदायिनीम् सम्पादयितुम् बलम् अदात्। स्थानीय सर्वकारैः नागरिक मैत्रिणी कार्याणि सम्पादितानि सुशासनम् सम्पादितम् च सन्त्येव संघीयतायाः औचित्यम् स्थापितम् भवतीति भासमाणः प्रधानमन्त्री प्रचण्ड स्थानीय जनप्रतिनिधिभिः दायित्ववायिभिः उत्तरवायिभिश्च भाव्यमिति बलम् प्रादात्। जसपा नाम्ना जनता समाजवादी दल नेपालेन सर्वकाराय प्रदत्तम् समर्थनम् प्रत्यावृतम् वर्तते। जसपा दलस्य अध्यक्ष उपेन्द्र यादवः ह्य सभामुखम् देवराज घिमिरेविदम् पत्रम् सम्प्रेष्य सर्वकाराय प्रदत्तम् समर्थनम् प्रत्यावृतम् अस्तीति अज्ञापयत्। अध्यक्षो यादवः प्रधानमन्त्रिणः पुष्पकमलदाहाल प्रचण्डस्य नेतृत्वस्य सर्वकाराय प्रदत्तम् समर्थनम् प्रत्यावृत्य सर्वकारादपि स्वस्य दलम् बहिर्भूतम् अस्तीति असूचयत्। असौ स्वस्य दलम् सर्वकाराद् बहि प्रतिपक्षे स्थित्वा रचनात्मक भूमिका निर्वक्ष्यते इति उदयरयत। तत्पूर्वम् उपप्रधान स्वास्थ्य जनसंख्या मन्त्रितः उपेन्द्र यादवेन त्यागपत्रम् प्रदत्तम् आसीत्। एवमेव वन वातावरण राज्य मन्त्रिणा दीपक कार्किणा अपि ह्यैव पदात् त्यागपत्रम् प्रदत्तम् वर्तते। अत्रान्तरे अशोक राई नेतृत्वस्य जनता समाजवादी दलात् नियुक्तौ स्वास्थ्य जनसंख्या मन्त्री प्रदीप यादवः स्वास्थ्य जनसंख्या राज्यमन्त्री हसिना खातुम च ह्य शपथम् अगृह्णीताम्। राष्ट्रपति कार्यालये ह्य आयोजिते समारोहे राष्ट्रपतिः रामचन्द्र पौडेलः स्वास्थ्य मन्त्रिणम् यादवम् प्रधानमन्त्री पुष्पकमलदाहाल प्रचण्डः स्वास्थ्य राज्यमन्त्रिणम् खातुम इत्यमुम् च पदगोपनीयतयोः शपथम् अग्राहयताम्। कोशी प्रदेश सर्वकारस्य मुख्यमन्त्रिणा हिक्मत कुमार कार्किणा कोशी प्रदेश सभाता ह्य विश्वासस्य मतम् प्राप्तम् वर्तते। ह्य उपविष्टे प्रदेश सभाया उपवेशे कार्किणा 75 मतानि प्राप्तानि सन्ति। कार्किणा विपक्षे शून्यमतम् अभिव्यक्तम् आसीत्। प्रदेशसभायाम् 5 सदस्ययुतम् राप्रपादलम् तटस्थम् आसीत्। ह्यस्तनोपवेशे प्रतिपक्षिणा नेपाली कांग्रेस दलस्य प्रदेशसभा सदस्याः अनुपस्थिताः आसन्। समग्रता 93 सदस्यायां प्रदेशसभायां ह्य 62 सदस्याः उपस्थिताः आसन्। नेकपा एकीकृत समाजवादी दलस्य केन्द्रीय समितेः उपवेश अद्यतः ललितपुरस्य बालकुमार्यां प्रारभते। अद्य स्वच्छ सञ्चालयमाने उपवेशे दलस्य आसन्नमाधिवेशनस्य वैचारिक दृष्टिकोणस्य आराष्टम दलस्य सांगठनिकावस्थायाः जनवर्गीय संगठनानां कार्यप्रगतेः दलस्य आन्तरविवादस्य सामयिक परिस्थितेश्च विषयेषु विमृक्ष्यते। अथ च प्रदेश क्षेत्र भूगोलानां सन्तुलनं कृत्वा आवश्यकस्थानेषु नेतृभ्यः दायित्वं निर्धारयिष्यमाणम् अस्तीति च दलेन ज्ञापितं वर्तते। उपवेशस्य सम्पूर्णानि पूर्वकार्याणि प्रपूरितानि सन्तीति दलेन ज्ञापितमस्ति। नूतन विधानम् आधृत्य आगामिनः आषाढ मासस्य 16 दिवसात् 20 दिवसं यावत् दलेन काष्ठमण्डपे राष्ट्रिय महाधिवेशनम् आयोजयितुं पूर्वकार्यं विहितं वर्तते। नेपाली कांग्रेस संसदीय दल कार्य समितेः संसदीय दलस्य च उपवेशौ स्थगितौ वर्तेते। ह्य दिवासमयाय निर्धारितौ उपवेशौ अद्यतन दिवसं यावद् स्थगितीकृतौ स्तः। ह्य स्थगितीकृतः संसदीय दल कार्य समिते उपवेश अद्य प्रात 8 दलस्य उपवेश 9 च वसताहिति नेपाली कांग्रेस दलेन ज्ञापितं वर्तते। उपवेशौ सिंहप्रसाद वर्तिनी संसदीय दलस्य कार्यालये निर्धारितौ स्तः। उपप्रधान परराष्ट्रमन्त्री नारायण काजी श्रेष्ठ मानस स्वास्थ्यस्य शारीरिक स्वास्थ्यस्य च प्रवर्धनाय योगाय ध्यानाय च महत्वं प्रदातव्यमिति धारणां व्यनक्ति। ह्य काष्ठमण्डपे प्रारब्धस्य स्वास्थ्य सम्मेलनस्य द्वितीय संस्करणस्य उद्घाटन सत्रं सम्बोधयन् उपप्रधानमन्त्री श्रेष्ठ योगः ध्यानं पौरस्त्यचिन्तनस्य संस्कृतेश्च पक्षाश्चैव अस्माकं जीवनशैली वर्तते इत्यतः अत्र बलप्रदानम् आवश्यकम् अस्तीति प्रावोचत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा दायित्वे केन्द्रिताः सन्ता कार्याणि विधातुम् अन्तर्गतस्य निकायान् विभागस्य उच्चाधिकारिणश्च निर्दिशति। वर्तमान आर्थिक वर्षस्य तृतीय त्रैमासिक प्रगति समीक्षायां मन्त्रालय स्तरीय विकास समस्या समाधान समितेः मन्त्रालये ह्य उपविष्टे उपवेशे च संचार मन्त्री शर्मा सम्बद्ध निकायान् क्रियान्वयन क्षमाः योजनाः कार्यक्रमान् चैव निर्मातुम् अन्वरुणात्। संचार मन्त्री शर्मा संचार मन्त्रालयः सर्वकारस्य आदर्शः अस्तीति चर्चयन् अन्येभ्यः मार्गदर्शनत्वेन कार्याणि विधातव्यानि इति प्रावोचत्।